एषा रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। नवरात्रस्य तृतीये दिवसे अद्य नवसु दुर्गासु तृतीयायाः चन्द्रघण्टा देव्याः उपासना विधीयते। हस्ते चन्द्राकृतिं घण्टां धारयति त्यतः देवी इयं चन्द्रघण्टा नाम्ना ख्याता अस्ति। चन्द्रघण्टायाः ध्यानेन आराधनया च बह्व्यः सिद्धयः समुपलभ्यन्ते इति विश्वासो वर्तते। अद्य देवीपीठेषु गृहे च पूजास्थले देव्यः चन्द्रघण्टायाः आह्वानं विधाय विधिपूर्वकं पूजायां विहितायां बह्व्यः सिद्धयः समुपलब्धुं शक्यन्ते इति शास्त्रीया मान्यता अस्ति। अस्मिन् दिने आराश्रम विद्यमानेषु शक्तिपीठेषु देव्या दर्शनाय पूजायै च भक्तजनानां सम्मर्दो विद्यते। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन अस्यैव आश्विनस्य दशमैकादश द्वादश दिवसेषु अविरल वृष्ट्या जलविप्लव भूस्खलनाभ्याम् क्षतिग्रस्तानां स्थानीयस्तराणां संकटग्रस्त क्षेत्रतया घोषणायै सर्वकारः परामृष्टोऽस्ति। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरण कार्यकारी समितेः प्रवक्ता डा डीजन भट्टराई जलविप्लवेन भूस्खलनेन अति प्रभावितानां विभिन्नानां जनपदानां षट्त्रिंशदधिकाः स्थानीयस्तरा संकटग्रस्त क्षेत्रतया घोषिताः सन्तीति असूचयत्। भौतिक पूर्वाधार यातायात मन्त्री देवेन्द्र दाहालः भाषते जलविप्लव भूस्खलनयोः कारणेन अवरुद्धाः राजमार्गाः विजयादशम्याः प्रागेव सञ्चालयितुं तीव्रतया कार्यं विधीयमानमस्ति। प्रतिनिधिसभायाः पूर्वाधार विकास समितेः ह्यस्तनोपवेशे मन्त्री दाहालः विजयादशम्यां ग्रामं गृहं च गन्तुकामान् यात्रिणः लक्ष्यीकृत्य यातायात साधनानि सञ्चालयितुं सर्वकारेण नैज क्षेत्रस्य निर्माणोपकरणानि प्रयुज्य मार्ग संचालनस्य कार्यं तीव्रगत्या विधीयमानमस्तीति असूचयत्। उपवेशे भौतिक पूर्वाधार यातायात मन्त्री दाहालः सम्प्रत्यैव दूरापन्ना जलविप्लवात् भूस्खलनात् च जातायाः क्षतेः पुनर्निर्माणाय आसन्न पञ्चविंशत्यब्जानि रूप्यकाणि व्ययी भवितुं शक्नुवन्तीति असूचयत्। मानवहि सृष्टानां समस्यानां कारणेन वृष्ट्या सहैव जलविप्लव भूस्खलनाभ्यां जनधनयोः क्षतिः जातेति पुनर्निर्माणाय सर्वकारेण विशेष वित्तस्य विषये चिन्तनं विधातव्यम् इत्यत्र सांसदः बलं प्रादुः। पृथ्वी राजमार्गस्य धादिङ जनपदे भूस्खलन सम्भावितेषु क्षेत्रेषु अत्यावश्यक सामग्री सहितः सुरक्षाकर्मिणः परिचालिताः सन्ति। पृथ्वी राजमार्गस्य पञ्चदशाधिकेषु स्थलेषु सामग्री सहितः सुरक्षाकर्मिणः पुनर्निर्माणस्य सम्भारस्य च कार्यं विदधानाः सन्तीति यात्रिणां यातायातस्य च स्थितिः सामान्या जायमानास्तीति धादिङ जनपद प्रशासन कार्यालयेन ज्ञापितमस्ति। अत्रान्तरे आराश्रम जलविप्लव भूस्खलनादि प्राकृतिक विपत्सु निपत्य एकोनचत्वारिंशदधिक शतद्वय जना मृता सन्ति। घटनायाम् एकोनविंशति जना विलुप्ता वर्तन्ते। अन्य सप्तसप्तत्युत्तरैकशत जना आहता सन्तीति गृह मन्त्रालयेन ज्ञापितं वर्तते। जलविप्लव भूस्खलनादि प्राकृतिक विपत्सु निपतितानां सप्तदश सहस्राधिक जनानां सकुशलम् उद्धार विहितोऽस्तीति गृह मन्त्रालयस्य प्रवक्ता ऋषिराम तिवारी अज्ञापयत्। ताप्लेजुङ जनपदस्य मैवा खोला ग्रामपालिकायाः द्वितीय ओडा क्षेत्रस्य दो बालौ खोलिकायां निमज्य विलुप्तौ स्तः। मैवा खोला स्थानस्य खार्ते स्थिते हृदय जलक्रीडायाः क्रमे स्थानीयस्य सञ्जहाङ बराइली इत्यस्य पुत्र एकादश वर्षीयः सन्देशः तस्यैव स्थानस्य रिञ्जिन शेर्पा इत्यस्य पुत्री द्वादश वर्षीया आयता रानी शेर्पा च विलुप्तौ स्तः इति ताप्लेजुङ जनपद प्रहरी कार्यालयेन ज्ञापितमस्ति। राष्ट्रपतिना रामचन्द्र पौडेलेन सह राष्ट्रियसभायाः अध्यक्षेण नारायण प्रसाद दाहालेन मेलवार्ता विहिता अस्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने सम्भूते मेलने अध्यक्षः दाहालः अन्तर्व्यवस्थापिका संघस्य सम्मेलने भागं ग्रहीतुं स्विजरल्याण्ड देशे गमनस्य विषयं राष्ट्रपतेः समक्षम् असूचयत्। अध्यक्षः दाहालः स्विजरल्याण्ड देशे आयोक्ष्यमाणस्य अन्तर्व्यवस्थापिका संघस्य सम्मेलने भागं ग्रहीतुं नेपाली प्रतिनिधिमण्डलस्य नेतृत्वं विधाय अस्यैव आश्विनस्य पञ्चविंशे दिवसे तत्र प्रस्थास्यति। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ नेपालस्य अत्याधुनिक स्वरूपम सफलयितुं नेपाल दूरसंचार संस्थानस्य भूमिका महत्वपूर्ण वर्तते इति उक्तवानस्ति। जावलाखेल वर्तिनी नेपाल दूरसंचार प्राधिकरणस्य ह्य निरीक्षण विदधान सर्वकारस्य प्रवक्ता मन्त्री गुरूङ दक्षिण एशियाई क्षेत्र मध्ये नेपाले सूचना प्रविधे सम्भावनाया महत्वपूर्ण क्षेत्रमस्तीति अभाषत। नेपाल दूरसंचार प्राधिकरण सेवाया प्रभावकारितायै बलम ददत् मन्त्री गुरूङ व्यावसायिकताया सेवाया गुणस्तरयुक्तायाश्च कृते सुधारस्य अपेक्षा अस्ति इति अवोचत्।